सर्वेषां पुनः एकवारं संस्कृतकक्षायां स्वागतम्। सुधा भगिनी मङ्गलाचरणं वक्तुमिच्छति वा?
आं भगिनि। ॐ गणेशाय नमः। ॐ वागर्ताविव सम्प्रक्तौ वागर्तप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः।
धन्यवादः, सुन्दररीत्या उक्तवती, धन्यवादः। अस्तु, कोऽपि प्रश्नः अस्ति वा? वयं षष्टिविभक्ति इति किञ्चित् अभ्यासं कुर्मः गतवर्गे, अपि च सर्वत्र तत्र एकत्र इति अपि किञ्चित् अभ्यासं कुर्मः। भवान् भवती कोऽपि प्रश्नः अस्ति वा? आनन्दज्योति सौन्दरं भगिनी, नमस्कारः, स्वागतम्। अस्तु, अहम् एकमेकं आङ्ग्लभाषायाम् एकं लघुवाक्यं वदामि, तदनन्तरं भवत्याः सर्वे जनाः संस्कृतभाषायां तदेव वाक्यं वदतु। अस्तु, किञ्चित् ध्वनिः आगच्छति, प्रतिध्वनिः अहं म्यूट् करोमि। अस्तु अस्तु अस्तु, she stands in the temple. Sudha bhagini, prayatna karotu bhagini.
Haan bhagini, she stands
in the temple. सर्वे जनाः मनसि एव प्रयत्नं करोतु, किन्तु सुधा भगिनी वदतु।
सः
इति लिङ्गं किं भगिनी? सा उत्तमं,
सारि,
चिन्ता मास्तु। सा तिष्ठति,
तिष्ठति स्टाण्डिङ्ग्,
वेटिङ्ग् स्टाण्डिङ्ग्, तिष्ठति। यदि टेम्पल् इत्युक्ते कोऽपि जानाति वा?
देवालयम्,
उत्तमं। देवालय अपि च देवालयं, किं
देवालय
किं समीचीनं किं जानाति वा? देवालयः उत्तर उत्तमं कविता भगिनी पुंलिङ्ग् एव देवालयः
I have not completed with अह I had just said देवालय
अस्तु अस्तु किन्तु देवालय इति एकं पदं नास्ति भगिनि
ओके
देवालय इति हिन्दीपदम् अस्ति किन्तु संस्कृतभाषायाम् इति पदमेव नास्ति
सा देवालयः तिष्ठति
इति सर्वे सर्वे जनाः किन्तु चिन्तयन्तु समीचीनं वा कोऽपि जानाति वा वदतु
सा देवालये तिष्ठति
किमर्थं देवालये भगिनी
सप्तमी विभक्ति
सप्तमी सप्तमी इत्युक्ते
लोकेशन् लोकेशन्
ओके ओके या
उत्तमम् उत्तमम् पुनः वदतु सुधा भगिनी
सा देवालये तिष्ठति
उत्तमं सुन्दरं वाक्यं सुन्दरम् उत्तमम् अस्तु शिवरूपा भगिनी ही सिङ्ग्स् एट् होम्
भवतः गृहे गायति
सर्वे किञ्चित् चिन्तयन्तु इति समीचीनं वा
गृहे गायति
किमर्थं भवतः नास्ति अत्र शिवरूपा भगिनी भवती एव वदतु किमर्थं भवतः इति समीचीनं नास्ति किमर्थं वै इस् भवतः नाट् करेक्ट्
बिकास् हियर् वी आर् यूसिङ्ग् क्रियापदानि
क्रियापदम् इत्युक्ते गायति किन्तु किमर्थं भवतः पदपदपरिचय वदतु भगिनी
भवतः मीन्स् वी केन् से टु
भवतः विभक्तिरूपं किं
षष्ठी विभक्ति
इत्युक्ते
सम्बन्धः
इत्युक्ते भवतः मीनिङ्ग्
भवतः मीनिङ्ग् इट्स् फार् मस्कुलैन् लैक्
ही न भगिनि इफ् इट् इस् सम्बन्ध इत्युक्ते कोऽपि जानाति वा
बिलाङ्ग्स्
टु वाट् इस् वुड् यु काल्
हिस् किन्तु हिस् किञ्चित् क्षम्यताम् अस्तु किन्तु हेज् अपि समीचीनम् अत्र न सत्यं नास्ति भवतः भवतः इत्युक्ते
हिस्
न भगिनि प्रथमविभक्तिरूपं किम्
ऐ वास् थिङ्किङ्ग् इट् इस् वाट् डु यु काल् युर् सेल्फ् भवतः नाम किं
यु इस् दट् मीन्स् यु
भवान् इत्युक्ते यु आप् तत् भवान् यदि भवान् प्रथमविभक्ति अस्ति चेत् षष्ठीविभक्ति भवतः इति इत्युक्ते हिज् न भगिनी हिज् इस्
मास्कुलिन्
हिज् इस् नाट् यु नाट् हिम्
यूस् फर् मास्कुलिन्
अस्तु आम् किन्तु अत्र भवान् इत्युक्ते यु आप् तदनन्तरं तर्हि षष्टिविभक्तिरूपम् अर्थ किं
युअर्
योर् का उक्तवती हु सेड्
सुधा
योर् भवतः नाम किम् आप् का नाम क्या है अस्ति वा कविता भगिनी भवतः इत्युक्ते योर् यदि पुरुष अस्ति चेत् भवतः स्त्रीलिङ्ग् अस्ति चेत् किं
भवती
भवती इत्युक्ते प्रथमविभक्तिरूपं षष्टिविभक्तिरूपं किं
भवत्याः
भवत्याः उत्तमं भवत्याः हिन्दीभाषायाम् अपि च आङ्ग्लभाषायाम् इत्युक्ते किम् हर् केसे भगिनी हौ हर् 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 इत्युक्ते
स्त्रीलिङ्गं योर्
स्त्रीलिङ्गं योर् आप्का आप्की आप्के हर् इत्युक्ते अस्तु नौ ऐ अण्डर्स्टाण्ड् वै यु आर् मेकिङ्ग् देट् मिस्टेक् भगिनी क्युकि शिवरूप भगिनी यु सी इन् संस्कृत शुड् ऐ स्पीक् इन् हिन्दी एव्रिबडि इस् ओके वित् हिन्दी अस्तु हिन्दी मे हम लोग आपको मध्यम पुरुष समझते हैं यस और नो मध्यम पुरुष इत्युक्ते आप यु किन्तु संस्कृतभाषायां भवान् अपि च भवती इट् यूजेस् थर्ड् पर्सन् इट् इट् इङ्ग्लिश् इत्युक्ते प्रथमपुरुष संस्कृत सो जो आप सोच रही हैं कि ओ हर एंड हिज इसलिए सोच रही बिकॉज इट इज प्रथम पुरुष किंतु भवान यू आप अपि च भवती आप दे यूज प्रथम पुरुष इन संस्कृत दे स्टिल द मीनिंग स्टिल रिमेन्स आप ओनली सो भवान इत्युक्ते आप मैस्कुलिन पुरुष भवती माने स्त्रीलिंग महिला बालिका भवान भवन्तं द्वितीय विभक्ति भवन्तं माने आपको आपको माने कौन आप पुरुष को भवतीं माने आप स्त्री आप महिला को भवत्याः आप महिला आपका उसका नहीं हिज एंड हर बिकम उसका करेक्ट शिवरूपा भगिनी
यस भगिनी
सो यस ऑल्दो इट यूज प्रथम पुरुष विभक्ति रूपम विभक्ति न पुरुष रूपम प्रथम पुरुष रूपम किंतु दैट इज नॉट थर्ड पर्सन इन मीनिंग इट इज स्टिल आप ओनली तो वॉट वॉज माय इंग्लिश सेंटेंस
ही इज सिंगिंग एट होम सिंग्स एट होम
वदतु भगिनी
सः गृहं गायति
गृहम् इति विभक्तिरूपं किम्
इट्स् सप्तमी विभक्ति लोकेशन्
गृहम् इति वा उत्तमम् उत्तमम् उत्तमं सः गृहे गायति सुन्दरम् उत्तमं धन्यवादः अस्तु शैलजा भगिनी
यस् भगिनि
यु आर् गोयिङ्ग् टु स्कूल्
भवान् भवान् पाठशाला पाठशालां गच्छति
पाठशालां इति द्वितीयविभक्ति. किन्तु तदेव समीचीनं. बिकास् वै इस् इट् समीचीनं? वै नाट् पाठशाले, पाठशालायां? यु सेड् पाठशालाम् अस्ति वा?
हा.
वै डिड् यु से पाठशालां?
प्रथमा विभक्ति
न न न न न भवती भवत्याः वाक्यं समीचीनं, किन्तु पाठशालाम् इत्युक्ते कर्मपदम्. अत्र कर्मपदम् इत्युक्ते किसी को, स्कूल को, आपको, पुस्तक को, घर को, घर को देखो. तो किसको देखना? घर को देखो. जिसको को मिलता है वो कर्म पदम हो जाता है. अस्ति वा?
हाँ
हाँ. तो व्हाट वाज द सेंटेंस? यू आर गोइंग टू,
यू गो टू,
तो वो
यू गो टू स्कूल.
टू स्कूल में सप्तमी नहीं लगेगी. Very correct.
Yes.
You are correct, but you should also understand why you said it.
Yeah.
Ah. So
I know that is not saptami. But yeah, I did not. Understand like why it is. Patashalam. Yeah. Now I got it.
You got it, na?
Yes.
Because
yes, ma'am.
School ko jana hai na? Patashalam. Gachati.
Still vibhaktis are a little bit confusing for me. I'm not that familiar with the words.
Bhagini, that is why we are practicing. That is why. The whole point of this class is that only, Bhagini. Chinta mastu. Abhyasena eva vayam sarvam avagatam. Abhyas karke hi sarvayega. Astu. Astu. Sundaram. Kavita, Bhagini.
Yes, okay.
Mummy or Ma cooks, where will she cook? She cooks in, where will she cook? In the village. Prayatna karotu.
I'm totally blank.
No. Prayatna karotu, Bhagini. Mata.
So mata is the one who is doing.
Karta.
What is getting cooked? Yes. Acha, so you have to look at like that. So mummy is cooking, so mummy is the karta. So that's the prathama striling ekvachana.
Uttamam. Mata cooks ityukte kopi janati va? Cooks iti sanskrita
bhashayam
pachayati.
पचति उत्तर उत्तमं. पचति उत्तमं. पचति
प्रेजेंट टेंस
सिंगुलर.
कुक्स सिंगुलर.
अपि च प्रथम पुरुष. समबडी अदर देन यू एंड आई. तू और मैं इलावा, तू और मेरे इलावा कोई खाना बना रहा है. वो कौन है? वो माँ है.
अच्छा, ओके.
गॉट इट? तू और मेरे इलावा कोई खाना बना रहा है. वो कौन है? वो है माँ. तो माता पचति. माता पचति. कहाँ बना रही खाना? लोकेशन.
सो लोकेशन
गांव में. गांव का शब्द
ग्रामम
इज द नपुंसकलिंग पदम. So then, क्या बन जाएगा उसका सप्तमी?
ग्रामे.
ग्रामे उत्तमम. कविता भगिनी, सप्तमी विल बी ग्रामे.
ओके.
सप्तमी माने क्या? लोकेशन.
लोकेशन सेवेंथ वाला.
मे और पर. मे और पर. तो ग्रामम. सो नपुंसकलिंग अपि च पुंलिंग. ते द्वयोः रूपाणि समानेव तृतीय विभक्ति पर्यंतम थर्ड विभक्ति ऑनवर्ड्स दे आर द सेम दे टेक द सेम रूपस सो
I'm sorry, मतलब आपने जो अभी संस्कृत में बोला कि तृतीय विभक्ति पर्यंत दे आर सेम दैट्स व्हाट आई अंडरस्टूड
पर्यंतम इत्युक्ते तीन ऑनवर्ड्स नो तीन पर्यंतम ना तीन से इत्युक्ते तृतीय विभक्ति तः तृतीय विभक्ति तः इत्युक्ते वहां से
ओके क्योंकि पर्यंतम सेज दैट 1 2 3 अभी आपने बोला वहां से मींस 3 ऑनवर्ड्स
किंतु क्षम्यतां भगिनी
नो आई एम ट्राइंग टू अंडरस्टैंड प्लीज डोंट से सॉरी
नहीं प्रथम अपि च द्वितीय भिन्न 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 रूपम भिन्न रूपाणि भिन्नानि रूपाणि इत्युक्ते इन नपुंसकलिंग एंड
मैस्कुलिन
पुंलिंग इन पुंलिंग एंड नपुंसकलिंगे प्रथम विभक्ति अपि च द्वितीय विभक्ति भिन्नानि रूपाणि दे आर डिफरेंट फॉर्म्स किंतु थर्ड ऑनवर्ड्स दे आर द सेम सो तृतीय चतुर्थी पंचमी षष्ठी सप्तमी समान एव सो सप्तमी एकवचन रूपम पुंलिंग अस्ति चेत् ग्रहे देवालये ए सप्तमी हो गया देवालये इत्युक्ते देवालय में ग्रहे इत्युक्ते घर में
तो ये जो भी सेंटेंस है माता पच्छति ग्रामे
ग्रामे
तो पच्छति इज इन इटसेल्फ इज कुक इन द प्रेजेंट टेंस
करेक्ट
द लेडी इज कुकिंग इन द प्रेजेंट टेंस
करेक्ट
और
पुनः वदतु वाक्यम
माता पच्छति ग्रामे
माता ग्रामे पच्छति इन द बिगिनिंग वी गिव यू वर्ड ऑर्डर टू हेल्प यू अंडरस्टैंड Of course, okay. word order doesn't change the meaning at all. But for your convenience, we give you some structure.
All right.
So, pachati, we usually put verbs at the end.
Okay.
Give me one more, Kavita Bhagini. So, the boy writes in school.
Okay. The boy will be Balak, kaha.
बालकः
एकवचन प्रथम पुरुष एंड
प्रथम विभक्ति भगिनी
सॉरी प्रथम विभक्ति या
इज अ नाउन ना बालक इज अ नाउन
यस बालक राइट्स आई डोंट नो द वर्ब
या यू नो एनीबॉडी इज इन योर बुक लुक अप भगिनी कविता भगिनी पेज 12 लिखति
लिखति
उत्तमं
सो लिखति सो प्रेजेंट टेंस अगेन सो बट द बॉय इज राइटिंग सो फॉर मैस्कुलिन राइट द बॉय राइट्स इन स्कूल इट्स नॉट यू और मी सो इट विल बी थर्ड विभक्ति सॉरी प्रथम उत्तम एंड मध्यम सो दिस विल बी मध्यम पुरुष
ना भगिनी मध्यम पुरुष इत्युक्ते तू
Oh, sorry. So, Prathama Purusha. Nor you, nor me. So, okay. but I don't... So, how does this translate into what Likhatu will become? Or Likhatu is the final thing?
Likhatu, no. Likhatu, no.
Likhati.
No, you need... Likhati is the Prathama Purusha Rupam. Ichukte. If I say Likhati, iska matlab, nahi, na tu, na main likhai. कोई और लिख रहा है जस्ट इफ आई से लिखती
तो ये
इसका मतलब ना तू ना मैं लिख रहे हैं कोई और लिख रहा है
तो बराबर है इधर क्योंकि मैं किसी और की बात कर रही हूँ थर्ड पर्सन की
एग्जैक्टली यहाँ पे इट इज समीचीनम लिखती सो
बालक लिखती विद्यालय विद्यालय इज स्कूल इन सो दिस इज अगेन द सेवेंथ विभक्ति तो जैसे विलेज वॉज ग्रामे सो दिस विद्यालय
पुनः पूर्णतया समीकरोति
बालकः लिखति विद्यालये नो बालकः विद्यालये लिखति
उत्तमम् उत्तमम् सुन्दरम् सुन्दरं भगिनि सुन्दरं धन्यवादः सौन्दरं भगिनि द गर्ल्स् आर् लाफिङ्ग् इन् द प्ले ग्रौण्ड् बहुवचन गर्ल्स् आर् लाफिङ्ग् इन् द प्ले ग्रौण्ड्
बालिकाः இந்த ப்ளேகிரவுண்ட்
கோபி ஜானாதி வா சஹாயம் கரோது
பாலிக்காக கிரீடாங்கணே கிரீடாங்கணே ஹசந்தி
உத்தமம் பாலிக்காக கிம கிமர்த்தம் பாலிக்காக பகினி त्रीणि वचनानि वदतु सुन्दरं भगिनि आकारान्त स्त्रीलिङ्गपदम् एव बालिका इत्युक्ते केवल
एकवचनम्
अस्ति एकवचनम् अस्ति चेत् द्विवचनम् अस्ति चेत्
बालिके
बहुवचनम् अस्ति चेत्
बालिकाः
उत्तमं कविता भगिनी लता त्रीणि रूपाणि वदतु
लता लते लताः
उत्तमं शैलजा प्रथमपुरुष एकवचन लता स्त्रीलिङ्ग लता द्विवचन लते अपि च बहुवचन
लताः
लताः लताः
ओके लताः
विसर्ग कापि इस् द लास्ट् वट् इस् इट् कापि
स्वर् जो है वो
अन्त वाला स्वर लास्ट वावल अंत वाला स्वर कॉपी करता है करेक्ट उत्तमम
सो लताह गॉट इट
उत्तमम लताह अस्तु शैलजा भगिनी रमा त्रीणी रूपाणि वदतु
रमा रमे रमाह
उत्तमम शिवरूपा भगिनी शाला वदतु
शाला शाले शालाः
उत्तमं सुधा भगिनी क्षमा
क्षमा क्षमे क्षमाः
उत्तमम् आनन्द ज्योति भगिनी छाया
छायाः
उत्तमम् अस्तु सौन्दरं भगिनी किमर्थं हसन्ति इति उक्तवती किमर्थं हसति न
हसन्ति लाफिङ्ग् इन् बहुवचनं
बालकाः
न न न बहुवचनम् आफ्
बिकास् वी यूस्ड् बालिकाः इस् आल्सो बहुवचनं भगिनी बिकास् यू सेट् गर्ल्स्
अस्तु अस्तु किमर्थम् अस्तु सत्यं भगिनी सत्यं किन्तु मम प्रश्न किमर्थं हसन्ति हसति न
बहुवचनं फोर् गर्ल्स्
न बहुवचनं फोर्
द गर्ल्स् आर्
गर्ल्स्
बहुवचनं फोर् हसति
हसति
हसति इत्युक्ते
एकवचनं
लाफ
One person only laughing, you say hasati.
Hasati.
Two people are laughing, Sundaram Bhagini.
Hasataha.
Oh. If I just simply I say hasataha, I don't give any other word. Simply I say what? Hasataha. Immediately you are thinking, na tu na main, koi do log has rahe hai.
Bhagini? So we say like balike hasataha. Is that right? Balike hasataha. Okay.
Uttamam, uttamam. यदि यदि बहुवचनरूपम् अस्ति चेत् तदनन्तरं सौन्दरं भगिनी
बहुवचनरूपसि
त्रीणि रूपाणि पुनः वदतु सौन्दरं भगिनी
एकबालिके बालिके हसतः
त्रीणि रूपाणि
बालिका बालिका हसति बालिके हसतः बालिकाः हसन्ति
उत्तमम् उत्तमम् आनन्दज्योति भगिनी बाय् प्लेस् त्रीणि रूपाणि वदतु बाय् प्लेस् टु बाय्स् प्ले मेनि बाय्स् प्ले वदतु भगिनी आनन्द ज्योति भगिनी
बालकाः प्लेसेस्
पश्यतु भगिनी पेज् 12 पश्यतु अन्वेषणं करोतु अभ्यासपुस्तके पेज् 12 अन्वेषणं करोतु फैण्ड् इट् अन्वेषणं करोतु
सो इट्स् क्रीडति
क्रीडति
क्रीडति सो बालकः क्रीडति बालकः क्रीडत् बालक
द्वौ अस्ति चेत् बालकौ
बालकौ क्रीडते
बालकौ क्रीडतः
क्रीडतः
बहुवचन
बालके क्रीडते
न एकनिमिष भगिनी एकनिमिष सुधा भगिनी सुधा भगिनी त्रीणि रूपाणि वदतु
किसके लिए भगिनी
लड़का खेलता है दो लड़के खेलते हैं बहुत लड़के खेलते हैं वदतु
बालकः क्रीडति क्रीडति बालकौ क्रीडतः बालकाः क्रीडन्ति
उत्तमम् उत्तमं शिवरूपा भगिनी लड़की पी रही है त्रीणि वचनानि रूपाणि वदतु भगिनि
बालिका पीबति बालिके पीबति
पिबतः
पिबतः बालिकाः पिबन्ति
पिबन्ति उत्तमम् शैलजा भगिनी वह आ रहा है
भगिनी कैन यू प्लीज रिपीट
वह आ रहा है वह इज हु somebody
somebody या
वह इत्युक्ते
त्वं नो
त्वम् इत्युक्ते तु
आवाम्
आवाम् इत्युक्ते न न भगिनि
नो नो
पेज् 12 पेज् 12 अभ्यासपुस्तकं वः
उक्तवाः
वः कोऽपि जानाति वा
भवान्
भवान् इत्युक्ते आप्
भवतः
भवतः इत्युक्ते आप्का पुंलिङ्ग् कोऽपि जानाति वा पुनः वदतु पुनः वदतु सः वः इत्युक्ते सः
सः इस् फोर् स्त्रीलिङ्गं भगिनि
न पुंलिङ्ग् अस्ति वः स्त्रीलिङ्ग् अस्ति
सोरि सोरि पुल्लिङ्गं बट् वः इस् लैक् वि डोण्ट् नो वेदर् हि आर् शी
यू केन् से एनि देन् नो
Oh, I thought like, you know, Vaha is, we, how can I use like Saha or Sa, because I'm just thinking about if there is another word to use specifically for, if we don't know the gender. Okay.
No, 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 Bhagini, that's nasty. That's nasty. Yadi Pumling Asi Chet?
Saha.
Saha,
So if we don't know the gender, we can use just Saha. For, I mean, we can use for masculine gender.
You can say tat also. Tat chukte, vaha aa raha hai, chukte, what if the train is coming or what if, you know?
Tat. Okay, tat is again, I thought it is for thing.
Napunsakaling.
Yeah, napunsalingam.
When you don't know, you can use any. And then give me the clarification. Then you can say, yadi pumling asti chet, vaha agachati. यदि स्त्रीलिङ्ग् अस्ति चेत् सा आगच्छति यदि नपुंसकलिङ्ग् अस्ति चेत् तत् आगच्छति
Can I try one more sentence, भगिनी
उत्तमम् उत्तमम् अस्तु वः खा रहा है
सा खादति
किन्तु अहं किं वदामि वह खा रहा है
खा रहा है प्रेजेंट कंटीन्यूअस
लिंगम किम
खा रहा है इस पुल्लिंगम सा सह खादति सा खादति तत् खादति इफ वी डोंट नो द लिंगम
अस्तु किंतु इवन द फर्स्ट टाइम आई सेड वह आ रहा है यू काइंड ऑफ न्यू द लिंगम सी आ रहा है लेट्स यू नो द लिंगम
Yes, yeah.
But the word Vaha alone you don't know.
Yeah, I'm just concentrating on Vaha.
It's okay, it's okay. Uttamam, uttamam. Astu. So, Vaha kha raha hai. Trini vachanani rupani vadatu bhagini. वदतु भगिनि सः खादति
भगिनि आर् यु आस्किङ्ग् मी सोरि सोरि वट् डिड् यु आस्क् भगिनि
त्रीणि वचनानि वचन
आगच्छति
सः खादति
ओके सः खादति
द्वौ अस्ति चेत्
तौ खादतः
उत्तमम्
ऐ मीन्
ते
खादन्ति
उत्तमम् उत्तमं धन्यवादः
फोर् स्त्री फोर् स्त्रीलिङ्गम् आल्सो
स्त्रीलिङ्ग् भगिनि स्त्रीलिङ्ग् अस्ति चेत् वदतु
सा खादति
न वदतु रिपीट् आफ्टर् मी स्त्रीलिङ्ग् अस्ति चेत्
स्त्रीलिङ्ग् अस्ति चेत्
इत्युक्ते अगर् स्त्रीलिङ्ग् है तो
ओके
वदतु पुनः स्त्रीलिङ्ग् अस्ति
स्त्रीलिङ्ग् अस्ति चेत्
सा वदतु
सा खादति ते खादतः
उत्तमम्
ताः खादत
ताः
खादत
ताः
तः खादन्ति सोरि तः खादन्ति ताः खादन्ति सो बहुवचनम् इस् सेम् फार् स्त्रीलिङ्गम् अण्ड् पुल्लिङ्गम् भगिनि
उत्तमम् उत्तमम् इट् इस् इट् लुक्स् द सेम् इफ् यु डोण्ट् नो द जेण्डर् इट् लुक्स् द सेम्
ओके
न इफ् यु no no it isn't actually because if you so let us see so saha tau te
saha tau
te te khadanti chukte pumlinga
te ha more than saha
khadanti chukte chukte kim
stree striling ekavachanam saha khadanti No. So,
let me say.
What did you ask, Bhagini? Sorry, I'm getting confused. What did you ask, Bhagini?
Astu, sarve sham krute, sab ke liye bol rahi hun. So, pumling asti chet, sah khadati, ekavachana. Tau khadatah, dvivachana. Te khadanti, bahuvachana. स्त्रीलिङ्ग् अस्ति चेत् सा खादति द्विवचन ते
खादतः
खादतः ताः खादन्ति
भगिनी देट् मीन्स् इट् इस् कमिङ्ग् सेम् नो लैक् फार् मास्कुलिन् अण्ड्
न बहुवचनरूपं पुंलिङ्ग् अस्ति चेत् ते खादन्ति खलु ते खादन्ति
बट् फार् स्त्रीलिङ्गम् आल्सो वी सेड् लैक् ते खादन्ति
नो ते खादतः ते खादतः द्विवचनरूपं स्त्रीलिङ्ग् अस्ति चेत् ते बहुवचनरूपं पुंलिङ्ग् अस्ति चेत् ते
सः ते ते एण्ड् सा
न न न
सः तौ ते
सः तौ ते अपि च
सा ते ताः एण्ड् क्रियापदं भगिनि
समानेव
समानेव फोर्
लिङ्गं लिङ्ग् इट् डजन्ट् चेञ्ज् वित् लिङ्गं सो खादति खादतः खादन्ति
Yes, Bhagini. Now I understand. So, sah kadati, tau kadatah, te kadanti, sa kadati, te kadatah, taha kadatah, kadanti, taha kadanti.
Uttamam. Kavita Bhagini, वह जाता है
जाता है गच्छति आना और आगच्छति जाना
उत्तमम गच्छति
तो वह इज बॉय तो सह गच्छति सः गच्छति
सः गच्छति त्रीणि वचनानि वदतु
सः गच्छति तौ गच्छताः
तौ
गच्छताः
तः गच्छतः
गच्छतः एण्ड् ते गच्छ gachanti this is a guess I don't know
gachanti guess no okay. bhagini you know gachanti uttamam striling okay. asti chet sa striling asti chet
sa सा गच्छति ते गच्छताः गच्छतः एण्ड् ताः गच्छन्ति
उत्तमं सुन्दरं सुन्दरम् अपि च नपुंसकलिङ्ग् अस्ति चेत् भगिनी कविता भगिनी तत्
तत् द वर्ब् रिमेन्स् द सेम् इन् नपुंसक
अस्तु अस्तु
ओके तत् गच्छति नपुंसक द्विवचन
ते
ते गच्छतः एण्ड्
तानि
तानि गच्छन्ति
वी हेव् डन् आल् दिस् नो इन् अभ्यासपुस्तकं
नो ऐ हेव् नाट् प्राक्टिस् द मी
विदौट् प्राक्टिस् हौ विल् डू दट् इस् वै वी आर् प्राक्टिसिङ्ग् दट् इस् वै वी आर् प्राक्टिसिङ्ग् अस्तु वेर् डिड् वी डू आल् दिस् तत् ते तानि पेज् टु एण्ड् त्री भगिनि टु एव्रिबडि गो टु पेज् टु सः ओन्लि द्विवचन इस् नाट् देर् सः तौ
एक्चुलि वि आर् डिसेण्डिङ्ग्
नो इट्स् ओके भगिनि इट्स् ओके सः तौ ते देन् स्त्रीलिङ्ग् सा ते ताः नपुंसकलिङ्ग् अस्ति चेत्
भगिनि this is page number 2 means in which madam abhyasapatama where it is
in page 2 bagini page 2 abhyasa pustake sah eshah sah esha
oh that is there okay
etat tat vayam tat kurmaha astu किन्तु यदा वयं कुर्मः तदेव अहम् एकवचन द्विवचन त्रि बहुवचन सर्वाणि कुर्वन्ति वि डिड् इट् आल् वेन् वी वर् डूयिङ्ग् दिस् एक्सर्सैज् सो गो बेक् एण्ड् रिपीट् इट् सो वि डू इट् टुडे ओन्लि सो सः तौ ते सा ते ताः तत् ते तानि गाट् इट् एव्रिबडि अस्तु सो नौ सौन्दरं भगिनी
केन् यु रिपीट् इट्
पुंलिङ्ग् अस्ति चेत् सः एकवचन तौ द्विवचन ते बहुवचन सः तौ ते एकवचन द्विवचन बहुवचन सः तौ ते अस्तु स्त्रीलिङ्ग् अस्ति चेत् सा ते ताः अस्तु ताः नपुंसकलिङ्ग् अस्ति चेत् तत् ते तानि अस्तु समीचीनम्
Bhagini, Kriyapadam is same for all the lingams.
Now
so we can remember like that.
Kriyapadani only changes with Vachana and Purusha, not with?
Lingam.
Kriyapadam changes only with Purusha. Purusha ichukte? Me, tu and Anya. Purusha, three Purushas. So, we'll repeat again. Saundaram Bhagini, Astu, Agachatu.
Yes, ma'am.
Astu. Wo dekhti hai. Vah dekhti hai. Wo dekhti hai. Vadatu. she sees.
She sees. Trini Rupani.
Astu Bhagini.
Saha.
Na,
vo. Pashyati.
Saha na Bhagini. She sees.
Little. She sees.
She.
She, okay. She sees. Sa gach, sa pashyati. Te pashyataha. Saha pashyanti.
Uttamam. Pumling asti chet?
Saha pashyati. Tau pashyataha. Te pashyanti.
Uttamam. Napum sakaling asti chet?
Tat pashyati. Te pashyataha. Tani pashyanti.
Uttamam. Sundara ritya uktavati. Sundaram. Sundaram. Ananda Jyoti Bhagini.
Haan Bhagini.
He writes. Eka vachana rupam. He writes.
Saha likat likataha likataha.
Saha likhati. Kalu.
Okay. Saha likhati. Sau. Likat. Sau likatu.
Na, tau. Tau.
Tau. Ha, tau likati. Likati.
Asu. Eka nimesha bhagini. Eka nimesha. Ahamiti manye. Should I write it for you, all people? Are you confused? Let me write it. Astu.
Ha, likatu. Tau likati.
Saha. Saha likati. Then, tau.
Tau.
Likataha.
Likataha. Okay.
Likataha. Then, te likanti.
Likanti.
Astu. One second. This is if yadi pumling asti chet. Astu. Please see in your chat. Pumling asti chet. Saha likhati, tau likhataha, te likhanti.
Ha, pumling.
Pumling asti chet. Striling asti chet?
Sa likhati. Te likat. We should say the same or the verb should be keep changing.
Same verb. You use the same verb only.
Okay.
Next.
De.
Te
likat likataha taha likat likate
taha look what did I write
likati
I haven't given you that hold on I'm writing it for you
we got it Bhagini here
you got it
yeah I can see that. I can
Astu.
See the word.
Asu. So that is pumling asti chet. Striling asti chet. Atra.
Taha likati, likanti, right?
So pumling asti chet is the first three. Saha likati, tau likataha, te likanti.
Likanti.
Bhagini, for striling, it is taha, no? Taha likanti.
Kshamyatam bhagini. Mama dosha. Mama dosha. Dosha. Kshamyatam. Astu, astu. Taha. Yes, I am using.
Shrilinga che ta likate. Te likantaha. Taha likanti.
Astu. Astu. Dhanyavada bhagini. Kshamyatam. Taha likanti. Iti shrilinga sthi che. Second box is correct. Striling asti chet. middle one is wrong. Dosha. Kshamyatam. Saha likhanti. Taha likhanti.
Taha, okay. Ta likhanti.
Taha likhanti.
Taha.
Second one.
Taha likhanti. Okay.
Astu.
And napunsaka linga to
tat. Napunsaka linga se tat likhati.
Likhati.
Te
likhataha.
Likhtani.
Likhantani.
Likhanti. Same. Verbs don't change, no, Bhagini? Kriyapadani te samaneva. Kriyapadani samaneva. Te tani likhanti. Taha likhanti. Te likhanti.
Oh, tani likhanti. Okay, napunsaka linga it will not change. Okay.
Now, no gender they change. Kriyapadani samaneva. Kriyapadani chukte verbs do not change with gender.
Genders.
Okay. The last
so,
one
abhi,
I said, scroll down to the bottom. The last one is correct. Sa likhati, te likhatah, taha likhanti. Same three verbs are there for all. Ekavachana, dvivachana, bahuvachana rupa. Lat lakar rupam ichukte present tense only. Taha likhanti. Asti va?
Asti. And for napunsaka linga also it's same, right? So
same.
It'll be tat likhati and te likhataha tani likhanti.
Yes.
Thank you, ma'am.
Got it, everybody? Sarve avagatam va?
Yes, Bhagini.
Yes, Bhagini. Yes.
Astu,
sorry, Bhagini. Maine two class nahi join kiya tha, isliye mujhe thoda piche hai.
No, chinta mastu. Always go back and listen to the recordings, Bhagini. That's why the recordings are there.
Yeah, sure, Bhagini.
That's the purpose of the recording. You miss a class, no worries. You go and you listen. Is there. Everything is there only. You go and listen. Even if you attend class, you should listen. And listen to other teachers also. Please, everybody. Every teacher is bringing something new. You don't have to listen to their last class. Listen to their first few classes. Every teacher brings their own energy and beauty, no? Astu. Astu, we do it again. Puna puna abhyasena eva sarvam avagatam. Astu. Ananda Jyoti Bhagini, dhanyavadaha. Astu. Sudha Bhagini. Sudha Bhagini. He laughs. Sarvani vachanani vadatu Bhagini.
He laughs. Saha hasati. Tau hasataha. Te hasanti.
Sriling asti chet.
Sa hasati. Te hasataha. Taha hasanti.
Napum sakaling asti chet.
Tat hasati. Te hasataha. Tani hasanti.
Sundaram. Dhanyavadaha. Sivarupa Bhagini. He studies.
Bhagini.
Vadatu. He studies.
He studies. Saha patati.
Sami karotu Bhagini. Sami karotu. He studies. Saha.
Saha patati.
No. Saha no. Saha. Saha.
Saha patati. Tau patati. Patataha. Te patanti.
Strilinga asti chet.
Sa patati, te patataha, taha patanti.
No, taha.
Taha patanti.
Tat
patati, te patataha, tani patanti.
उत्तमं. पुनः पुंलिङ्ग् अस्ति चेत् पुनः वदतु.
सः पठति, तौ पठतः, ते पठन्ति.
उत्तमं. स्त्रीलिङ्ग् अस्ति चेत्?
सा पठति, ते पठतः, ताः पठन्ति.
उत्तमं, धन्यवादः भगिनी, सुन्दरं. शैलजा भगिनी, शी प्लेस्.
सः क्रीडति, तौ क्रीडतः.
भगिनी शैलजा भगिनी, शी प्लेस्,
सोरि, सा क्रीडति, शी प्लेस्. क्रीडति इस् प्लेस् न भगिनी?
आं भगिनी.
सा क्रीडति, ते क्रीडतः, ताः क्रीडन्ति.
पुंलिङ्ग् अस्ति चेत्?
सः क्रीडति, तौ क्रीडतः, ते क्रीडन्ति.
उत्तमं. नपुंसकलिङ्ग् अस्ति चेत्?
तत् क्रीडति, ते क्रीडतः, तानि क्रीडन्ति.
सुन्दरं सुन्दरं, धन्यवादः भगिनी. कविता भगिनी, इट् सीज़.
To see, pashyati. It is napusaka. So, tat pashyati, te pashyataha, tani pashyanti.
Napumsaka ling asti. Sri ling asti chet?
Ta pashyati, te pashyataha, taha पश्यन्ति.
पुंलिङ्ग् अस्ति चेत्?
सः पश्यति, तौ पश्यतः, ते पश्यन्ति.
सुन्दरं, धन्यवादः भगिनी. सौन्दरं भगिनी,
धन्यवादः.
सौन्दरं भगिनी आगच्छतु. Leads.
It eats, huh? Eats.
No, leads. Leads.
Leads. Tat layati?
Nayati.
Nayati. Nayati. Tat nayati. Te nayatah. Tani nayanti.
Napumsakalinga. Strilinga asti chet?
सा नयति, ते नयतः, ताः नयन्ति. पुल्लिङ्ग् अस्ति चेत् सः नयति, तौ नयतः, ते नयन्ति.
सुन्दरं भगिनि, धन्यवादः. आनन्दज्योति भगिनि, हि गोस्
सः go okay
dvadash puta sankhya bhagini 12 page 12
page 12 okay.
sahayam karotu kopi
गच्छति.
धन्यवादः. गच्छति,
गच्छति, ओके. सा गच्छति.
Did I say he? I said he goes.
He, okay. सः गच्छति, तौ गच्छतः, ते गच्छन्ति.
उत्तमं. स्त्रीलिङ्ग् अस्ति चेत्?
सा गच्छति, ते गच्छतः, सः गच्छन्ति.
ताः
ताः गच्छन्ति.
नपुंसकलिङ्ग गच्छन्ति
गच्छन्ति.
नपुंसकलिङ्ग अस्ति चेत्
तत् गच्छति. ते गच्छः
पुनः वदतु. ते
ते गच्छाः
द्विवचनक्रियापदं
लिखति. लिखताः गच्छताः गच्छति गच्छताः.
ताः न भगिनि, गच्छतः
गच्छतः.
यु केन् आनन्द ज्योति भगिनि, यु केन् रीड् देवनागरी नो भगिनि. केन् यु रीड् देवनागरी? केन् यु रीड्?
No, I am not good in any language.
No. Can you read Hindi? Can you read the...
Yeah. To some extent.
To some extent you can read, no? So yeah. The last one I sent in chat. Please read the last time I sent the chat. Read.
Okay. I'm just opening. Taha likanti.
The last thing, very last box.
सा लिखति, दट् वन्. ते लिखतः, तः लिखन्ति.
समीकरोतु भगिनि, ऐ डिडन्ट् रैट् तः.
ओ तः, देर् इस् अ टु डाट् देर्. ओ ताः,
करेक्ट्.
ताः लिखन्ति.
पुनः वदतु, नपुंसकलिङ्ग अस्ति चेत्
तत् गच्छति. ते गच्छतः और् गच्छतः, रैट्? गच्छतः. तानि गच्छन्ति.
How are you beginning this gachanti? Not correct, na bhagini?
Gachanti.
The kriyapadani same, samaneva. Puna vadatu bhagini, napum sakaling.
Okay, sorry. Okay.
Vadatu bhagini.
Tat gachanti, te gachata.
Na, bhagini, samikarotu. Tat.
Tat gachanti.
गच्छन्ति इत्युक्ते बहुवचनरूपं, तत् इत्युक्ते एकवचनरूपम्.
ओके,
तत् गच्छति.
गच्छति. ओके, इन् दे शुड् नॉट बी इन् देयर. ओके, गच्छति. तत् गच्छति.
मेक अ टेबल न भगिनी?
Yeah, I'm making that actually. I'm middle of that.
The same table I have written, same thing. You simply replace sa with tat, te with te, and tani with taha. Everything else remains same only.
Okay.
Puna vadatu bhagini.
Tat gachati, te gachataha.
Gachataha.
Tani. गच्छन्ति.
गच्छन्ति न भगिनि,
गच्छन्ति.
सी, देयर इज नो आकार एक्स्ट्रा देयर, करेक्ट?
या गच्छन्ति.
अभ्यासेन एव इज दि ओन्ली वे भगिनि, है ना भगिनि? अगेन एंड
अगेन.
उत्तमं भगिनि. अगेन एंड अगेन वी हैव टू, ऑल ऑफ अस हैव टू डू इट, डोंट वरी. वी ऑल हैव टू डू दिस ओनली, बट इट विल कम बिकॉज इट ब्रांड न्यू फॉर द ब्रेन, नो? चिन्ता मास्तु. मिलित्वा एव पठावः, पठामः. मिल्कर् ही हम लोग सब पढेंगे, डोंट वरी, वी वोंट लीव यू बिहाइंड. उत्तमं. चिन्ता मास्तु. अस्तु, यदि अहम् एकमेकं किमपि संज्ञापदं दत्तं तदनन्तरं पुनः समानेव वयम् अभ्यासं कुर्मः अधुना. अस्तु अस्तु सुधा भगिनी. वृद्धः यदि वृद्धः आगच्छति तदनन्तरं सर्वाणि रूपाणि वदतु.
क्या सेण्टेन्स् है भगिनि?
ओल्ड्
वृद्धः
एल्डर्लि इस् कमिङ्ग्
वृद्धा.
यु स्टार्ट् फ्रोम् द बिगिनिङ्ग् वृद्धः पुंलिङ्ग् अस्ति चेत् यु से लैक् दिस् यु से द सेम् आल् द फुल् सेण्टेन्स् यु से यदि पुंलिङ्ग् अस्ति चेत् एसे लैक् देट् यु से
यदि पुंलिङ्ग् अस्ति चेत् वृद्धः गच्छति आगच्छति वृद्धः आगच्छति
यदि
यदि
द्विवचन
द्विवचन पुंलिङ्ग् अस्ति चेत् तौ तौ वृद्धौ आगच्छतः.
उत्तमम्.
यदि बहुवचनं पुंलिङ्ग् अस्ति चेत् वृद्धे गच्छन्ति
ते
आगच्छन्ति.
उत्तमम् उत्तमं सुन्दररीत्या उक्तवती सुन्दररीत्या उक्तवती. शिवरूपा भगिनी धन्यवादः. सुधा भगिनी
धन्यवादः.
शिवरूपा भगिनी वैद्यः सम्पूर्णवाक्यं वदतु भगिनि. सम्पूर्णवाक्यं यदि
यदि पुंलिङ्ग पुंलिङ्ग एकवचन
पुंलिङ्गं यदि
यदि पुंलिङ्गम् एकवचन अस्ति चेत्
एकवचनम्
अस्ति चेत् वैद्यः सः वैद्यः
सः वैद्यः वदतु भगिनि. शिवरूपा भगिनि
सारि भगिनि ऐ वास् म्यूटेड्.
अस्तु अस्तु
यदि पुंलिङ्गम् एकवचन अस्ति चेत् सः वैद्यः आगच्छति. यदि पुंलिङ्गं द्विवचनम् अस्ति चेत् तौ वैद्यौ आगच्छतः.
उत्तमम्.
यदि पुंलिङ्गं बहुवचनम् अस्ति चेत् ते वैद्यौ
वैद्याः
ते वैद्याः आगच्छन्ति.
उत्तमम् उत्तमं धन्यवादः भगिनी. शैलजा भगिनी अस्तु किम् आरक्षकः. शैलजा भगिनी यदि आरक्षकः अस्ति चेत् तदनन्तरं सम्पूर्णवाक्यं वदतु भगिनी. शैलजा भगिनी अस्ति वा?
Sorry, Pagni, I was muted.
चिन्ता मास्तु. आरक्षकः समानेव सम्पूर्णरूपं वदतु भगिनि.
यदि पुल्लिङ्ग एकवचनम् अस्ति चेत् सः आरक्षकः आगच्छति. सः आरक्षकः आगच्छति. यदि पुल्लिङ्ग द्विवचनम् अस्ति चेत् त्वौ आरक्षकौ आगच्छतः. यदि पुल्लिङ्ग बहुवचनम् अस्ति चेत् ते आरक्षके
ते
आगच्छन्ति. ते आरक्षकाः ते आरक्षकाः आगच्छन्ति.
उत्तमं, धन्यवादः भगिनी.
भगिनी, ऐ वाण्ट् टु आस्क् वेदर् द द्विवचन इस् तौ और् त्वौ.
नो, तौ तौ.
ओके,
तौ. यु सी मै टैपिङ्ग्, ऐ रोट् इट् नो.
Yes, but right now Bhagini mentioned Tvav, so I got confused.
Oh, she said Tvav, I didn't hear Tvav. Kshamyatam. No, no. Tau.
Oh, eva. Sorry. Tau. Tau Arakshaka.
Tau. Astu, Kavita Bhagini. Kim? Sainikaha. Sainikaha. Puna, Sampurna Vakyam Vadatu Bhagini. वदतु.
यदि पुंलिङ्ग एकवचनरूपम् अस्ति चेत्
पुंलिङ्गम्
पुंलिङ्गम् एकवचन एकवचनम् अस्ति चेत् जस्ट् अ मिनिट्. सः सैनिकः आगच्छति.
उत्तमम्.
यदि पुंलिङ्गं द्विवचनम् अस्ति चेत् तौ सैनिकौ आगच्छतः.
उत्तमम्.
यदि पुंलिङ्गं बहुवचनम् अस्ति चेत् ते सैनिके No, I'm not confident. Sainikaha. No.
Te Sainikaha
Agachanti.
Uttamam. Uttamam. Dhanyavada Bhagini. Saundaram Bhagini. Kim?
Yes, Bhagini.
Astu, Kim? Pitana, Kim? Karyalayaha. Tishthati. Karyalayaha. Tishthati, chukte.
Standing.
Okay. Karyalaya ichute?
Office.
Office, astu. Vadatu bhagini. Purna, sampurna roop vakyam vadatu.
Karyalaya means office.
Office is, standing means is there, is like, is there, no? Office is there. It hasn't fallen down, it's still there.
Karyalaya.
सः सम्पूर्णवाक्यं वदतु भगिनी. यदि
यदि पुल्लिङ्ग अस्ति चेत् एकवचनं पुल्लिङ्ग अस्ति चेत् एकवचनं सः कार्यालयः तिष्ठति. यदि द्विवचन पुल्लिङ्ग अस्ति चेत्
पुंलिङ्गं द्विवचनं
पुल्लिङ्गं द्विवचनम् अस्ति चेत् तौ कार्यालयौ तिष्ठतः. यदि बहुवचनं पुल्लिङ्ग अस्ति चेत् ते कार्यालयाः तिष्ठन्ति.
उत्तमम्. उत्तमं, धन्यवादः भगिनी, सुन्दरम्. अस्तु, आनन्दज्योति भगिनी, boy laughs. Vadatu. Sampurna vakyam vadatu bhagini. Ananda Jyoti bhagini. Asti va?
Boy laughs. So, if it is punlinga
yadi,
yadi punlinga chatu.
Yadi pumling asti chet.
Asti chet. Okay. Yadi punling asti chet.
Ek vachanam rupam.
Balakaha.
Ichukte ka nasti kaha. Akaranta. A na nasti iti. Balakaha.
Laughs. Pashyati, is that the one?
Hasati.
Hasati. Okay. Edi pumlingas.
Pumlingam.
Pumlingam.
Dvivachanam. Dvivachanam.
Dvivachanam. Te. So.
Asti chet.
So.
Hasati ek vachanam asti chet hasati then dvi vachanam
hasati
hasataha yadi
punlingam chite
bahuvachanam
asti chet
te
Balakaha Hasanti.
Uttamam. Te Balakaha Hasanti. Uttamam. Sundaram. Astu. Punaha Sudha Bhagini. Adhuna. Striling asti chet. Kim Shridha Astu Kim Vridha. Vajatu bhagini. Vridha.
Kriya padam kya hai go?
Kriya padam pashyati.
Pashyati.
Vridha.
Vajatu bhagini. Sa
vridha. Yadi ekavachanam. Yadi strilingam ekavachanam asti chet. Sa vridha pashyati. Yadi strilingam dvivachanam asti chet. Te Te vridde pashyataha.
Uttamam.
Yadi strilingam bahuvachanam asti chet. Saha vriddaha pashyanti.
उत्तमम् उत्तमम् शिवरूपा भगिनी वैद्या वैद्या वदतु भगिनी सर्वाणि रूपाणि
यदि स्त्रीलिङ्गम् एकवचनम् अस्ति चेत् वैद्य सा वैद्या सा वैद्या पश्यति
उत्तमम्
यदि स्त्रीलिङ्गं द्विवचनम् अस्ति चेत् वैद्ये ते वैद्ये पश्यतः यदि स्त्रीलिङ्गं बहुवचनम् अस्ति चेत् ताः वैद्याः पश्यन्ति
उत्तमं सुन्दररीत्या उक्तवती धन्यवादः भगिनी अस्तु शैलजा भगिनी यस् भगिनी लता लता वदतु
क्रियापदं
पश्यति एव
पश्यति ओके लता यदि स्त्रीलिङ्गम् स्त्रीलिङ्गपदम् एकवचनम् अस्ति चेत् सा लता पश्यति यदि स्त्रीलिङ्गं स्त्रीलिङ्गं द्विवचनं पदम् अस्ति चेत् ते लते पश्यतः यदि स्त्रीलिङ्गं बहुवचनं पदम् अस्ति चेत् ताः लताः पश्यन्ति
सुन्दरं धन्यवादः भगिनी कविता भगिनी माला
मैं जस्ट आस्क बेसिकली सा इज वो जो उधर देखती है वैसा सा लता पश्यति
वो महिला सा इत्युक्ते
वो महिला सो नाउ अभी जो माला है तो मैं कह रही हूँ कि वो महिला जिनका नाम माला है वो देखते हैं
हाँ या माला मे बी माला है गाइस आल्सो एनीथिंग इट डजंट मैटर वदतु जस्ट अ पदम यू हैव टू गेट यूज्ड टू इट
यदि स्त्रीलिंगम एकवचनम रूपम अस्ति चेत् सा माला पश्यति यदि स्त्रीलिङ्गं द्विवचनं अस्ति चेत् ते माले पश्यति पश्यतिः पश्यतः
उत्तमम्
यदि स्त्रीलिङ्गं बहुवचनं रूपम् अस्ति चेत् ताः मालाः पश्यन्ति
उत्तमम् उत्तमं सुन्दरं भगिनी धन्यवादः सौन्दरं भगिनी छाया
इति स्त्रीलिङ्गं एकवचनम् अस्ति चेत् सा छाया पश्यति इति द्विवचनं स्त्रीलिङ्गं द्विवचनं अस्ति चेत् ते छाये पश्यतः इति स्त्रीलिङ्गं बहुवचनम् अस्ति चेत् ताः छायाः पश्यन्ति
उत्तमम् उत्तमं धन्यवादः भगिनी आनन्दज्योतिं
भगिनी सौन्दरं भगिनी अस्ति चेत् कहते हैं ना तो त सुनाई नहीं देता मुझे एटलीस्ट
नहीं त है आई हर्ड इट हाउ यू विल हियर इट इज द टेलरिंग ऑफ ऑफ द ए साउंड विल बी लाइक ए वर्सेस ए ए यू सी इट ब्लॉक्स इट इट कट्स इट As soon as it cuts sharply, you know that there is a ta. Some people will hear it more, some people will hear it less.
Which one, madam? I couldn't understand.
Puna vadatu, vakyam puna vadatu, yadi vakyam, iti vakyam. Vadatu? Yadi.
Sa.
Na, yadi.
Yadi. Striling, strilinga padam, eka vachanam asti che.
धन्यवादः कविता भगिनी
सॉरी प्लीज डोंट फील आई एम रिमूविंग मिस्टेक आई एम जस्ट द बेटर आई हियर आई विल इंप्रूव माय स्पीच आई एम सो सॉरी
उत्तमम उत्तमम भगिनी धन्यवादः
धन्यवादः
आनंद भगिनी आनंद ज्योति भगिनी रमा
श्रीलिङ्ग एकवचनम् अस्ति चेत् सा रमा पश्यन्ति
सा रमा एकवचनक्रियापदं भगिनि सा रमा पश्यति
पश्यति सा रमा पश्यति ते रमे पश्यतः सः रमा
ताः रमाः
पश्यन्ति
पुनः वदतु
श्रीलिङ्ग श्रीलिङ्ग एकवचनम् अस्ति चेत्
श्री श्री न भगिनि स्त्रीलिङ्गम्
ओके स्त्री स्त्रीलिङ्ग एकवचनम् अस्ति चेत् सा माला पश्यति ते माला पश्यतः
ते माले
माले पश्यतः ताः मालाः पश्यन्ति
उत्तमम् उत्तमं सुन्दररीत्या उक्तवती अभ्यासेन एव सर्वम् अवगतम्
भगिनी थैंक्स फॉर बीइंग पेशेंट विथ मी
न न न न न न न चिन्ता मास्तु भगिनी न न न तदेव अस्मि तदेव अहमस्मि अपि च अहमेव शिष्य मिलित्वा एव वयं सर्वे किञ्चित् किञ्चित् पठामः चिन्ता मास्तु भगिनि वदतु
भगिनि हियर् कर्मपदं वी हेव् टु जस्ट् रीप्लेस् द फार्म् इन् लैक् वेदर् इट् इस् अकार्डिङ्ग् टु द लिङ्गम् इस् दट् रैट् भगिनि वी केन् रिमेम्बर् इन् दट् वे
इत्युक्ते कर्मपदम् इति अभ्यासम् अद्य न कुर्मः भगिनि वी हेव् नाट् डन् कर्मपदम् अभ्यास
नो सोरि सोरि कर्तापदं या सो ऐ केन् रीप्लेस् दट् फार्म् इन् लैक् इन् द लिङ्गम् फार्म्स् रैट् भगिनि लैक् इफ् इट् इस् लता ऐ केन् जस्ट् लैक् सा ते ताः इट्स् देर् नो भगिनि सो लता लते लताः सो ऐ केन् रिमेम्बर् इन् दट् वे भगिनि
आं भगिनि आम् लता लते लताः सा ते ताः सः बालकः
रामः रामौ रामे
न रामः रामौ
रामौ रामाः
सो देट् इस् अ लिटल् बिट् कन्फ्यूसिङ्ग् ते बालकाः ते रामाः ते लक्ष्मणाः ते गणेशाः ते वृद्धाः ते आरक्षकाः लैक् दट् लिटल् बिट्
फर् बहुवचनम् इट् डिफर्स्
आ
ओके भगिनी, थैंक यू वेरी मच भगिनी.
स्लोली स्लोली इट विल कम भगिनी, चिन्ता मास्तु, चिन्ता मास्तु. अस्तु, गृहपाठरूपेण फार् होम्वर्क् कृपया सर्वाणि रूपाणि, पुंलिङ्ग् अस्ति चेत्, स्त्रीलिङ्ग् अस्ति चेत्, नपुंसकलिङ्ग् अस्ति चेत्, एकवचन द्विवचन अपि च बहुवचनरूपाणि सर्वाणि लिखन्तु कृपया. राइट, हौ मेनी सेंटेंसेस यू विल राइट? टोटल हौ मेनी विल देयर बी?
टोटल लाइक 3 × 3, 9 bagini.
Nine sentences. So write 9 sentences and then do it for different two or three different nouns.
Okay, bagini.
And kriyapadam. Two or three different. So 9 × 18, maybe you can do 9 × 1 = 9, 2 = 18. At least 2 times you should do.
For 2 examples.
2 at least, if not 3. To get that in your head.
Right, bagini.
And write it down. Write it down. गृहपाठरूपेण अस्ति वा? अस्तु अस्तु, समयः जातः. शान्तिपाठ किं वक्तुम् इच्छति वा?
केन् ऐ रीड् भगिनि?
भगिनि वदतु.
ॐ पूर्णमिदः पूर्णमिदं पूर्णात् पूर्णमुदुच्यते पूर्णस्य पूर्णमिदाय पूर्णमेव वसिष्यते. ओम शांति शांति शांति.
धन्यवादः.